सर्वेभ्यो नमः स्वागतम्. वयं प्रार्थनां प्रथमतया कुर्मः. मीना भगिनी,
not seeing the screen, but I can still say it. Avavatu sahanau bhunaktu sahaviryam karavavahai तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्तिः शान्तिः शान्तिः. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्तिः शान्तिः शान्तिः. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्तिः शान्तिः शान्तिः. श्रीगुरुभ्यो नमः. हरिः ॐ.
धन्यवादः भगिनी. गतवर्गे वयं प्रथम अभ्यासः प्रथम अभ्यासतः तृतीय अभ्यासपर्यन्तं वयं कृतवन्तः. अद्य वयं चतुर्थ अभ्यासः वयं कुर्मः. चित्रा भगिनी, भवती उपशीर्ष वाक्यम् अत्र वाक्यं पठतु.
आवरणे दत्तानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत.
समीचीनम्. अत्र रिक्ते स्थले स्थले इति पदस्य विभक्तिः का?
सप्तमी.
सप्तमी, समीचीनम्. कीदृशपदम्?
एकवचनं पुल्लिङ्गम्.
चित्रा भगिनी, भवती वदतु.
दिस् इस् पुल्लिङ्गम्. इस् पुल्लिङ्गम्
स्थलम् इति एकवचन प्रथमाविभक्ति एकवचने स्थलं स्थलम् इति भवति नपुंसकलिङ्गम्.
स्थलम् इस् ओके. स्थलम् इस् नपुंसकलिङ्गम्.
तस्य सप्तमी एकवचनं स्थले इति भवति. इदानीम् आवरणे इति पदस्य विभक्तिः का?
सप्तमी.
समीचीनम्. तस्य प्रथमा विभक्ति एकवचनं
आवरणम्.
आवरणम्. समीचीनम्. अत्र शब्दानाम् इति पदं तत् षष्टिविभक्ति बहुवचनं वयं न कृतवन्तः. रूपाणि इति किं वचनं?
रूपाणि तृतीयविभक्ति बहुवचनं.
समीचीनं. किमर्थं
स्त्रीलिङ्गम्?
न,
रूपाणि इस् ओके नपुंसकलिङ्गम्. आभरणम् आभूषणं.
किमर्थं द्वितीयाविभक्ति?
रूपाणि
रूपाणि
रूपं रूपाणि द्वितीयविभक्ति रूपाणि न.
आं, प्रथमाविभक्ति बहुवचनमपि रूपाणि एव. रूपं रूपे रूपाणि.
रूपं रूपे रूपाणि.
द्वितीयविभक्ति अपि बहुवचने रूपाणि एव. प्रथमाविभक्ति अपि रूपाणि. किन्तु अत्र कर्मपदम् अस्ति. किमर्थं किं लिखत?
Mm-hmm.
अस्तु इदानीं नीना भगिनी भवती उदाहरणं पठति वा
सः प्रातः पत्रिकां कवितां ग्रन्थं च पठति
समीचीनं तत्र किं दत्तमस्ति वयं किं कुर्मः
प्रथमा विभक्ति दत्तमस्ति वयं द्वितीया विभक्तिरूपेण परिवर्तनं
करणीयं
करणीयं
समीचीनं कुर्मः इदानीं तत्र सः प्रातः पत्रिकां कवितां ग्रन्थं च पठति तत्र कति कर्मपदानि सन्ति
त्रीणि
कर्मपदानि सन्ति समीचीनं तानि कानि
तानि पत्रिकां कवितां ग्रन्थं च
समीचीनं इदानीं समीचीनं धन्यवादः भगिनी इदानीं बृन्दा भगिनी भवती प्रथमवाक्यं करोति वा
रमेशः प्रतिदिनं देवं जनकम् अग्रजम् आचार्यं च नमस्करोति
समीचीनं भगिनी क्रियापदं किं
नमस्करोति
कर्तृपदं किं
रमेशः
समीचीनम् अत्र कति कर्मपदानि सन्ति
चत्वारि
चत्वारि समीचीनम् इदानीं सरलवाक्यं वदतु कर्मपदानि विना
रमेशः प्रतिदिनं नमस्करोति
समीचीनं रमेशः प्रतिदिनं नमस्करोति इदानीं कं नमस्करोति
देवः जनकः अग्रजः आचार्यः
देवाम् अग्रजं न देवं जनकम् अग्रजम् आचार्यं च नमस्करोति समीचीनं धन्यवादः इदानीं शीला भगिनी द्वितीयवाक्यं
सीता गन्धं सुधाखण्डं स्यूतं दण्डं च नयति
समीचीनं अत्र क्रियापदं किं
नयति
समीचीनम् कर्तृपदं किं
सीता
सीता अहम् इति कर्तृपदम् अस्ति चेत् वाक्यं किं भवति
अहं नमस्करोमि
न अत्र द्वितीयवाक्यं भगिनि
अहं ग्रन्थं सुधाखण्डं स्यूतं दण्डं च नमामि नयामि
समीचीनम् अस्तु कीदृशपदं ग्रन्थः पदपरिचयं करोतु
एकवचनं नपुंसकलिङ्ग एकवचनं
ग्रन्थः इति प्रथमाविभक्ति एकवचनरूपम् अस्ति तस्य पदस्य कस्य पदस्य प्रथमाविभक्ति एकवचनरूपं ग्रन्थः प्रातिपदिकं किम् ग्रन्थ अकारान्त पुल्लिङ्ग ग्रन्थपदस्य प्रथमाविभक्ति एकवचनं रूपं ग्रन्थः तादृशस्यूतः करोतु भगिनि.
स्यूतः अकारान्त
पुल्लिङ्ग
अकारान्त
पुल्लिङ्ग
पुल्लिङ्ग
स्यूत
स्यूत
शब्दस्य
स्यूतशब्दस्य
प्रथमाविभक्ति एकवचनरूपम्
अकारान्त अकारान्त पुल्लिङ्ग प्रथमाविभक्ति एकवचन
अकारान्त पुल्लिङ्ग स्यूत शब्दस्य प्रथमाविभक्ति एकवचनरूपं स्यूतः. इदानीं दण्डः करोतु.
प्रथमाविभक्ति एक अकारान्त अकारान्त पुल्लिङ्ग प्रथमाविभक्ति दण्डः दण्ड
दण्डशब्दस्य
दण्डशब्दस्य
प्रथमाविभक्ति
प्रथमाविभक्ति अकारान्त पुल्लिङ्ग
आरम्भतया लिङ्गम्
लिङ्गपुल्लिङ्ग
दण्ड शब्दस्य प्रथमाविभक्ति एकवचनरूपं दण्डः. सो अकारान्त देन् लिङ्गम् पुल्लिङ्गम् देन् प्रातिपदिकं दण्ड देन् विभक्ति प्रथमाविभक्ति देन् वचनम् एकवचनं देन् द वर्ड् सीता. इदानीं सीता इति करोतु.
आकारान्त स्त्रीलिङ्ग सीता शब्द
शब्दस्य
सीता शब्दस्य प्रातिपदिकं सीता
न अस्तु तस्य प्रथमाविभक्ति एकवचनं सीता
सीता
सीता अस्तु समीचीनम्. इदानीं नागेन्द्रमहोदय
तृतीय वाक्यः सेवकः आम्रः सः सेवकः आम्रं पनसं नारिकेलं च सिञ्चति
सिञ्चति समीचीनम्. इदानीं क्रियापद कर्मपदं विना सरलवाक्यं वदतु.
सेवकः सिञ्चति
समीचीनम्. आम्रः इति पदस्य पदपरिचयं करोतु.
आम्रः अकारान्त पुल्लिङ्ग अकारान्त पुल्लिङ्ग आम्रशब्दस्य प्रथमविभक्ति एकवचनं आम्रः
समीचीनम्. इदानीं सेवकः इति पदस्य बहुवचनरूपं किम्?
सेवकाः अकारान्त पुल्लिङ्ग सेवकशब्दस्य प्रथमविभक्ति बहुवचनं सेवकाः अस्ति.
समीचीनम्. इदानीं सेवकाः इति उपयुज्य वाक्यं करोतु.
सेवकाः आम्रं पनसं नारिकेलं च सिञ्चन्ति.
समीचीनम्. धन्यवादः महोदय. इदानीं नितिन् महोदय.
भगिनी रामः दशरथश्च सुमन्त्रच्च वसिष्ठच्च नमस्कृतवान्।
पुनः एकवारं वदतु महोदय।
रामः दशरथच्च सुमन्त्रच्च वसिष्ठच्च नमस्कृतवान्।
न, रामः नमस्कृतवान्, कं नमस्कृतवान्, इदानीं दशरथः इति पदस्य द्वितीयविभक्तिरूपं किम्?
दशरथ
न द्वितीयविभक्तिरूपं, कर्मपदरूपम्। वृक्षः वृक्षां, दशरथः
दशरथम्।
हा, दशरथम्। इदानीं सुमन्त्रः
सुमन्त्रम्।
सुमन्त्रं। वसिष्ठः
वसिष्ठम्।
हा, इदानीं वाक्यं वदतु।
रामः दशरथं सुमन्त्रं वसिष्ठं च नमस्कृतवान्।
हा, समीचीनम्। इदानीं तत्र कर्मपदं भवति दशरथं सुमन्त्रं
वसिष्ठं।
रामः कर्तृपदम्, एकः एकमेव कर्तृपदम्। अस्तु, इदानीं चित्रा भगिनी।
ओके। सज्जनः धर्मं परोपकारं सदाचारं च इच्छति।
समीचीनं भगिनि। इदानीं सज्जनाः इति उपयुज्य वाक्यं।
सज्जनाः धर्मं परोपकारं सदाचारं च इच्छन्ति।
समीचीनं। परोपकारम् इति पदस्य पदपरिचयं करोतु।
अकारान्त पुल्लिङ्ग परोपकारशब्दस्य प्रथमविभक्ति एकवचनं परोपकारम्।
न, तत्र द्वितीयविभक्ति एकवचनं।
द्वितीय
तावदेव, समीचीनम्। इदानीं तत्र धर्मः इति पदस्य पदपरिचयं करोतु।
अकारान्तपुल्लिङ्ग धर्मशब्दस्य द्वितीयाविभक्ति एकवचनं धर्मं।
समीचीनम्। अस्तु, अग्रे नीना भगिनी।
भगिनी आपणतः मालां, पत्रिकां, पादरक्षां, स्थालिकां च आनीतवती।
समीचीनम्। भवान् अस्ति चेत् वाक्य भगिनी स्थाने भवान् अस्ति चेत्।
भवान् आपणतः मालां, पत्रिकां, पादरक्षां, स्थालिकां च आनीतवान्।
आनयामि। ओ, भूतकाले अस्ति।
ओ, आनीतवती।
किमर्थं
भूतकाल स्त्री भूतकाल शब्द अपि
भूतकाले स्त्रीलिङ्गे एव अस्ति। भवती महिला अस्ति, अतः स्त्रीलिङ्गम्।
अतः स्त्रीलिङ्गम्।
पुरुषः अस्ति चेत् आनीतवान् इति भवति। एतद् वाक्यं बहुवचने वदतु।
भगिन्यः आपणतः मालां पत्रिकां पादरक्षां स्थालिकां च आनीतवत्यः.
समीचीनं भगिनि. इदानीं पत्रिका इति पदस्य पत्रिकाम् इति पदस्य पदपरिचयं करोतु.
आकारान्तस्त्रीलिङ्ग पत्रिका शब्दस्य द्वितीया विभक्ति एकवचनं पत्रिकाम्.
समीचीनं, धन्यवादः. इदानीं वृन्दा भगिनी.
बालकः लेखनीम् अङ्कनीं कादम्बरीं सूचीं च कृतवान्.
क्रीतवान्. समीचीनं. इदानीं बालकः स्थाने बालिका अस्ति चेत्
बालिका लेखनीम् अङ्कनीं कादम्बरीं सूचीं च कृतवती.
समीचीनं. लेखनी इति पदस्य पदपरिचयं करोतु.
ईकारान्त स्त्रीलिङ्ग लेखनी शब्दस्य प्रथमा विभक्ति एकवचनं लेखनी.
समीचीनम्. इदानीं तत्र बहुवच एतद् वाक्यं बहुवचने बालकाः अस्ति चेत्
बालकाः
लेखनीं
बालकाः लेखनीम् अङ्कनीं कादम्बरीं सूचीं च
कृतवत्यः कृतवत्यः तत्र अत्र कृतवन्तः
कृतवन्तः
क्रीतवन्तः
क्रीतवन्तः.
समीचीनम्. इदानीं शीला भगिनी.
माता स्यूतं युतकं वेष्टिं शाटिकां च
क्षालितवती. समीचीनम्. पिता अस्ति चेत् माता स्थाने पिता अस्ति चेत्
पिता स्यूतं युतकं वेष्टिं शाटिकां च क्षालितवान्.
समीचीनम्. तत्र शाटिकाम् इति पदस्य पदपरिचयं करोतु.
आकारान्त पुल्लिङ्ग शाटिका शब्दस्य प्रथमाविभक्ति एकवचन शाटिका.
शाटिका. समीचीनम्.
स्त्रीलिङ्गं पुल्लिङ्गं न.
आम्,
स्त्रीलिङ्गं
आकारान्तस्त्रीलिङ्गं.
किमर्थम् अत्र च अस्ति? च क्षालितवती. किमर्थं च अस्ति?
बिकास् देर् आर् सो मेनि थिङ्ग्स्. स्यूतं युतकं वेष्टिं शाटिकां
कर्मपदानि सन्ति. केवलम् एकं न, अनेकानि कर्मपदानि सन्ति.
अनेकानि कर्मपदानि सन्ति.
समूहः अस्ति, ग्रूप् अस्ति, अतः च अस्ति.
भगिनी, वाट् इस् द मीनिङ्ग् आफ् क्षालितवती?
क्षालितम् इति मीन्स् वाश्ड्.
Okay.
Kshalayati is clean. Kshalitavati is wash. Kshalayati. So, idanim Nagendra Mahodaya.
I have one question, Bhagini.
Bhagini.
So for for all this dutiya vibhakti, should we put a dot on top or ma with halanta?
So if the next word, because when begins with aswara,
okay, I know the rule now.
Okay.
Aham kolahalam kalaham charcham alasyam cha na ichhami.
Samichinam. Alasyam iti padasya padaparichyam karotu.
Akarant napunsaklingam. Alasya shabdasya prathama vibhakti ekvachanam.
Samichinam. Bahuvachane aham kim bhavati bahuvachane?
Vayam kolahalam kalaham charcham alasyam cha na ichhamah.
Samichinam. Dhanyavadah. Dhani. Nitin Mohodaya.
Which one, Bhagini?
Tenth one.
Aham Ganesham Durgam Saraswatim Lakshmim cha pujayami.
Samichina. Vayam asti chet?
Vayam Ganesham Durgam Saraswatim Lakshmim cha puja Lakshmim cha pujayami.
Pujayamaha. Saha asti chet? Aham stane saha?
Saha Ganesham Durgam Saraswatim Lakshmim cha pujayamaha.
Na. Saha asti. Kriyapadam kim bhavati?
Pujayami. Is it pujayami? Still it will be pujayami.
Aham pujayami. Saha?
Pujavatu. Puja.
No. Saha kadati. Aham kadame. Idanim aham pujayami. Saha?
Pujayati. Pujayami.
Pujayati. 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 Samichina. Idani vakyam
vadatu. Saha Ganesham Durgam Saraswatim Lakshmim cha pujayam yati.
Pujayati.
Pujayati.
Janaha iti.
Janaha.
Iti upayujya vadato.
In tenth, right?
Bahuvachane janaha. Aham stane janaha iti vadato.
Janaha Ganesham Durgam Saraswatim Lakshmim cha pujayati.
Pujayanti.
Pujayanti.
Bahuvachane este. Sarla vakyam adato kriya karma padam vina.
Ganesha Durgam Saraswatim Lakshmim.
Janaha pujayanti. Kam pujayanti? Janaha
Ganesham
Durgam Saraswatim
Pujayanti.
Saha pujayati janaha pujayanti aham pujayami vayam pujayamaha. Samichinam mahodaya. Samichinam va mahodaya. नितिन् महोदय समीचीनं वा?
In 10th, 11th.
Yes, it is.
No. अस्तु चित्रा भगिनी.
गोविन्दः जनाम् आपणां दीपां वृक्षां च पश्यति.
बहुवचने अस्ति भगिनि.
गोविन्दाः जनाम् आपणां दीपां वृक्षां च पश्यन्ति.
न न तत्र एकनिमिषः. अत्र द्वितीयभक्ति बहुवचने अकारान्तपुल्लिङ्गे बालम् एकवचने बालं बहुवचने बालान् स्त्रीलिङ्गे आकारान्तः बालिकां बालिकाः इति भवति. अनन्तरम् ईकारान्तस्त्रीलिङ्गे लेखनीं लेखनीः लेखनीः. अकारान्त नपुंसकलिङ्गे पुस्तकं
पुस्तकानि.
तत्र भेदः नास्ति. प्रथमाविभक्तिरूपं द्वितीयविभक्तिरूपं समानम्.
Here, what is the thing will be changing? Govinda.
Govinda.
Janan, janan, apanan, deepan, vrakshan cha, pashyanti.
Pashyati.
Pashyati. Okay.
Pashyati. Samichana. Govinda pashyati. Govinda kim pashyati? Govinda janan, apanan,
apanan, deepan, vrakshan. पश्यति.
गोविन्दः इति पदस्य पदपरि बहुवचने करोतु.
गोविन्दः बहुवचनं गोविन्दान्
न न ते इति सः ते गोविन्दः इति स्थाने ते इति उपयुज्य वाक्यं वदतु.
ते जनाः आपणाः दीपाः वृक्षाः च पश्यन्ति. जनान् आपणान् दीपान् वृक्षान् च पश्यन्ति. अहं जनान् आपणान् दीपान् वृक्षां च पश्यामि.
वयं गोविन्दः इति स्थाने वयं
पश्यामः.
भगिनी फोर् पास्ट् टेन्स् फोर् पश्यति पृच्छति.
न भूतकालं पश्यति पश्यन्ति
भूतकाले.
दृष्टवान् दृष्टवती.
यु वाण्ट् भूतकालं ओर् बहुवचनं महोदय? दृष्टवान् दृष्टवान् दृष्टवन्तः. दृष्टवती दृष्टवत्यः.
वयं गणेश उत्सव अवसरे भगिनीः जननीः महिलाः उद्योगिन्यान् च गृहम् उद्योगिनीः च गृहं प्रति आह्वयामः.
उद्योगिन्यः इति पदस्य पदपरिचयं करोतु.
ईकारान्तस्त्रीलिङ्ग उद्योगिनी शब्दस्य द्वितीया विभक्ति बहुवचनं उद्योगिन् बहुवचनं उद्योगिन्यः नो 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 प्रथमा विभक्ति बहुवचनं उद्योगिन्याः उद्योगिन्यः
उद्योगिन्यः
ईकारान्तस्त्रीलिङ्गम् उद्योगिनी शब्दस्य प्रथमा विभक्ति बहुवचनं उद्योगिन्यः
समीचीनं अस्तु तत्र वयम् अस्ति अत्र एकवचने वदतु
अहं गणेश उत्सव अवसरे भगिनीः जननीः महिलाः उद्योगिनीः च गृहं प्रति आह्वयामि
आह्वयामि समीचीनं भगिनि इदानीं भगिन्यः एकवचने किं
भगिनी
जनन्यः
जननी महिला उद्योगिनी
एकवचनम् उपयुज्य वाक्यं वदतु
वयं गणेश उत्सव अवसरे भगिनीं जननीं महिलाम् उद्योगिनीं च गृहं प्रति आह्वयामः
समीचीनं भगिनी धन्यवादः अग्रे वृन्दा भगिनी
वायुः पुरुषान् महिलान् वृक्षान् वनानीः गुल्मान् च स्पृशति
वनानीः न भगिनि
वनानीः
वनानि इति कीदृशपदम्
बहुवचनं
समीचीनम् एकवचने किं
वनम्
आम् वनम् वनानि लिङ्गं किं
नपुंसकलिङ्गम्
तत्र नपुंसकलिङ्गे प्रथमाविभक्तिरूप द्वितीयरूपं द्वितीयविभक्तिरूपं समानम्
समानं वनं विल् रिमेन् वनं आम्
सत्यं वनानि अपि
वनानि वनानि वनानिः रैट्
न पुस्तकं पुस्तकानि पुस्तकं पुस्तकानि वनं वनानि वनं वनानि प्रथमाविभक्ति द्वितीयाविभक्तिरूपं समानं वनं वनानि प्रथमाविभक्तिरूपं द्वितीयाविभक्तिरूपं वनं वनानि इदानीं वाक्यं वदतु
वायुः वायुः पुरुषान् महिलान् वृक्षान् वनानि गुल्मान् च स्पृशति
वायुः पुरुषान्
महिलान्
वायुः
पुरुषान् महिलान् वृक्षान् वनानि गुल्मान् च स्पृशति
अत्र महिलान् न किमर्थं
बहुवचनं
न समीचीनं बहुवचने एव अस्ति लिङ्गं किं
स्त्रीलिङ्गं
स्त्रीलिङ्गे
द्वितीयाविभक्ति बहुवचनं
बहुवचने प्रथमाविभक्ति अत्र प्रथमाविभक्तिरूपं
प्रथमाविभक्तिं
बहुवचनं बालि एकवचने किं बहुवचने किम्
एकवचने महिला बहुवचने महिलाः
द्वितीयाविभक्ति
महिलां महिलान्
न तत्र बालिकां बालिकाः द्वितीयाविभक्ति
महिलाः
महिलाः इदानीं वाक्यं वदतु भगिनि
Should I repeat the sentence again?
Aam bhagini.
Vayuh purushan.
Vayuh.
Vayuh purushan. Mahila. Mahila. Mahilan. Vrukshan.
Mahilaha.
Mahilaha. Vrukshan.
Mahilaha.
Mahilaha. Vrukshan. Vanani. Gulmaha. Will remain Gulmaha or Gulman?
Gulman.
Gulmaha. Gulman. Chas Prushati.
Chas Prushati. Vayuhu Purushan Mahilaha Prikshan Vanani Gulman Chas Prushati.
Gulmaha iti shabdasya artham kim?
Bush iti.
Bush.
Sorry, what is it? Push?
Push.
Bhagini, is it a pullinga shabda?
Gulmaha, gulmaha. Gulmaha, gulmaha.
Dhanyavad.
Hastam. इदानीं शीला भगिनी
गोपालः कवयित्र्या कवय वट् शब्द इस् दिस् पुलिङ्ग
समीचीनं भगिनी
गोपाल कवयित्रान् गृहिण्या
एकनिमिषः गृहिण्यः इति पदं तस्य पदपरिचयं करोतु
गृहिण्या पुलिङ्गः
न
गृहिणी इस् इट् गृहिणी गृहिण्या
यस्
गृहिणी इकारान्तम्
इकारान्तम्
इकारान्त ओके इकारान्त स्त्रीलिङ्ग गृहिणी शब्दस्य द्वितीया विभक्ति गृहिणीम् एकवचन गृहिणीं सारी ऐ एम् आल् ओवर्
So, Grihini
Ikaranta Strilinga Sabdas
Samichino Idani Grihinya Haiti Kim
Grihinya Bahubachan
Idani Karmapatam Chet
गृहिण्यं गृहिण्यः
लेखनीः
गृहिणीः
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 गृहिणीः गृहिणी गृहिणीः गृहिणीः
गृहिणीः
गृहिणीः
गृहिणीः
गृहिणीः
गृहिणीः
गृहिणीः
इदानीं कवित्र्यः कवयित्र्यः किं भवति
कवयत्रः कवयत्रान्
कवयित्र्यः
कवयित्र्यः एकवच अकारान्त पकारान्त पुल्लिङ्ग
तदपि बहुवचनम् एतदपि बहुवचनं
कवयत्रान् बहुवचन
एकवचनं
कवयित्री ओके कवयित्रान्
न स्त्रीलिङ्गपदम् लेखनी बहुवचने लेखनीः द्वितीयभक्ति बहुवचने लेखनीः नदीः लेखनीः कवयित्रीः
कवयित्रीः
गृहिणीः इदानीं कर्मकर्यः
कर्मकर्यः इस् इट् एकवचन पुल्लिङ्ग
स्त्रीलिङ्गमेव
ओ स आल् आर् स्त्रीलिङ्ग
आल् आर् ईकारान्त स्त्रीलिङ्ग
ईकारान्त स्त्रीलिङ्ग ओके
कर्मकरीः समीचीनम् इदानीं इदानीं प्रथमाविभक्ति एकवचनरूपं वदामः तत्र कवयित्री गृहिणी कर्मकरी इदानीं बहुवचनं कवयित्र्यः गृहिण्यः कर्मकर्यः प्रथमाविभक्ति इदानीं द्वितीयाविभक्ति बहुवचनं कवयित्रीः गृहिणीः कर्मकरीः इदानीं वाक्यं वदतु
गोपालः कर्म कवयित्रीः गृहिणीः कर्मकरीः च निमन्त्रयति
गोपालः कवयित्रीः गृहिणीः कर्मकरीः च निमन्त्रयति
समीचीनम्
इदानीं नागेन्द्र महोदय
अहम् I can't see the word अङ्कय अङ्कन्यः अहम् अङ्कन्यम् अङ्कन्य ओके अहम् अङ्किनीः लेखनीः कर्तयीः च कृतवान् अहम् अङ्किनीः लेखनीः कर्तयीः च कृतवान् कर्तरीः च कृतवान्
समीचीनम् एकवचने किम्
अहम् अङ्कनीं लेखनीं कर्तरीं च कृतवान्
कृतवान् महिला अस्ति चेत् अहं स्थाने महिला अस्ति चेत्
महिला अङ्कनीं लेखनीं कर्तरीं च कृतवती
क्रीतवती समीचीनम् धन्यवादः एकनिमिषः इदानीम् अभ्यासं कुर्मः. अत्र नामपदं दत्तमस्ति, तस्य द्वितीय आकारान्तपुल्लिङ्गः द्वितीयविभक्ति एकवचनरूपं बहुवचनरूपं वदामः. नितिन् महोदय, भवान् प्रथमतया अग्रजः.
अग्रजः
बहु द्वितीयविभक्ति प्रथमाविभक्ति एकवचनं, द्वितीयविभक्ति एकवचनं, द्वितीयविभक्ति बहुवचनं वदतु.
अग्रजम्
अग्रजान् अत्र षष्ठी न
अग्रजश्च
न अत्र बालम् अत्र ओके अहम् उदाहरणं वदामि. बालकः बालकाः बालकं बालकान् प्रथमविभक्ति
बालक
पुनः एकवारं वदामि. प्रथमविभक्ति
बालकः
बालकाः द्वितीयविभक्ति बालकान् इदानीम् अग्रजः इति वदतु महोदय.
अग्रजः अग्रजाम् अग्रजानां
अग्रजः प्रथमविभक्ति बहुवचनं किम्
अग्रजाः
इदानीं द्वितीयविभक्ति अग्रजं बालकः बालकाः प्रथमविभक्ति. इदानीं द्वितीयविभक्ति बालकं बालकान् अस्तु. अनन्तरं चित्रा भगिनी अङ्कः
अङ्कः अङ्कौ अङ्कान्
न भगिनि प्रथमाविभक्ति एकवचनं बहुवचनं, द्वितीयविभक्तिवचनं बहुवचनम्
अङ्कः अङ्कौ अङ्काः
न द्विवचनं न मास्तु भगिनि.
ओके अङ्कः अङ्काः देन् द्वितीयविभक्ति अङ्कान् बहुवचनमपि अङ्कान्
अङ्कः अङ्काः अङ्कम् अङ्कान्
अङ्कान्
इदानीं नीना भगिनी भवती अङ्कुरः वदति वा.
अङ्कुरः अङ्कुराः द्वितीय अङ्कुरम् अङ्कुरान्
समीचीनम्. इदानीं बृन्दा भगिनी
अध्यापकः अध्यापकाः शिक्षकः शिक्षकाः अध्यापकान्
एकवचनम् एकवचनम्
अध्यापकान्
न अध्यापकम्
अध्यापक अध्यापकम् अध्यापकान्
समीचीनं
शिक्षकं शिक्षकान्
समीचीनम्. इदानीं शीला भगिनी
अनिलकोश
अनिलकोशाः बहुवचन द्वितीयविभक्ति अनिलकोशं बहुवचन अनिलकोशान्
समीचीनम् इदानीं नागेन्द्रमहोदय
प्रथमविभक्ति अनुजः अनुजाः एकवचनं बहुवचनं द्वितीयविभक्ति एकवचनं अनुजं बहुवचनम् अनुजान्
नितिन् महोदय
अलकः
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 अलकः अलकः
अलकः
अलकः
अलकः
अलकः
अलकः
अलकः
इदानीं द्वितीय भवति
अलकाम्
अलकम्
अलकम्
अलकान्
यस्
इदानीं चित्रा भगिनी
अश्वः अश्वाः अश्वम् अश्वान्
समीचीनम् नीना भगिनी
अस्त्रचिकित्सकः अस्त्रचिकित्सकाः अस्त्रचिकित्सकम् अस्त्रचिकित्सकान्
समीचीनम् इदानीं बृन्दा भगिनी
आकाशः आकाशाः आकाशम् आकाशान्
समीचीनम् इदानीं शीला भगिनी
आत्मनीय आत्मनीयाः बहुवचन द्वितीयविभक्ति आत्मनीयम् आत्मनीयान् बहुवचन
इदानीं नागेन्द्र महोदय एकनिमिषः
आपणिकः आपणिकाः आपणिकम् आपणिकान्
समीचीनम् नितिन् महोदय
आरक्षः आरक्षाम्
आरक्षकः
आरक्षकः आरक्षकम् आरक्षान् आरक्षकान्
समीचीनम् आरक्षकः आरक्षकाः आरक्षकम् आरक्षकान् अस्तु इदानीं चित्रा भगिनी पतिः न वदतु आर्यपुत्रः
आर्यपुत्राः आर्यपुत्रम् आर्यपुत्रान्
समीचीनम् इदानीं मीना भगिनी
आसन्दः आसन्दाः आसन्दम् आसन्दान्
समीचीनम् इदानीं बृन्दा भगिनी
इन्द्रजालिकः इन्द्रजालिकाः इन्द्रजालिकम् इन्द्रजालिकान्
समीचीनम् इदानीं शीला भगिनी
उद्यानपालकः उद्यानपालकाः बहुवचन द्वितीयविभक्ति उद्यानपालकम् उद्यानपालकान्
समीचीनम् इदानीं नागेन्द्रमहोदय
उपग्रहाः उपग्रहम् उपग्रहान्
समीचीनम् इदानीं वयम् अकारान्तपुल्लिङ्गं कृतवन्तः इदानीम् अकारान्तनपुंसकलिङ्गं कुर्मः अस्तु इदानीं नितिन् महोदय अत्र अक्षरम्
अक्षरम् अक्षरः
नपुंसकलिङ्गमस्ति महोदय वनं वनानि वनं प्रथमाविभक्ति द्वितीयाविभक्ति समानम् वनं वनानि
अक्षरम् अक्षराणि
द्वितीयाविभक्ति समानम् अक्षराणि
अक्षराणि अक्षरम्
अत्र समानम् अस्ति वयम् अभ्यासं एकवारम् एव कुर्मः चित्रा भगिनी
अग्निशामकः शामकवाहनम् अग्निशामकवाहनानि
तावदेव इदानीं नीना भगिनी
अङ्गुलीयकम् अङ्गुलीयकानि प्रथमा द्वितीया अपि
समानम् समीचीनम् इदानीं वृन्दा भगिनी
अनासफलम् अनासफलानि अनासफलम् अनासफलानि
समीचीनम् इदानीं शीला भगिनी
अभियानम् अभियाननानि अभियानम्
अभियानानि
अभियाननानि
न अभियानानि
अभियानानि
अस्तु इदानीं नागेन्द्रमहोदय
अर्ध्यपात्रम् अर्ध्यपात्राणि अर्ध्यपात्रम् अर्घ्यपात्रम् अर्घ्यपात्राणि अर्घ्यपात्रम् अर्घ्यपात्राणि
समीचीनम् पात्राणि इदानीम् आकारान्त स्त्रीलिङ्गं कुर्मः इदानीं नितिन् महोदय तस्य रूपम् एकं वारम् अहं वदामि बालिका बालिकाः प्रथमाविभक्ति द्वितीयाविभक्ति बालिकां बालिकाः अहं बालिकां पश्यामि एकवचने अहं बालिकाः पश्यामि द्विवचने बहुवचने
अग्निपेटिका अग्निपेटिकाः अग्निपेटिकाम् अग्निपेटिकाहि
अग्निपेटिकाः
अग्निपेटिकाः
स्त्रीलिङ्गे अस्ति चित्रा भगिनी
अग्रजा अग्रजाः अग्रजाम् अग्रजाः
समीचीनम् इदानीं नीना भगिनी
अजा अजाः अजाम् अजाः
समीचीनम्
This time I got a simple one. Last time it was a tongue twister.
अस्तु इदानीं वृन्दा भगिनी
अध्यापिका अध्यापिकाः अध्यापिकाम् अध्यापिकाः
इदानीं शीला भगिनी भवती शिक्षिका वदतु
शिक्षिका शिक्षिकाः शिक्षिकां शिक्षिकाः
समीचीनम् इदानीं नागेन्द्रमहोदय
अनुजा अनुजाः अनुजाम् अनुजाः
समीचीनम् इदानीं नितिन् महोदय
उत्पीटिका उत्पीटिकाः उत्पीटिकाम् उत्पीटिकाः
समीचीनम् इदानीं चित्रा भगिनी
उपचारिका उपचारिकाः उपचारिकाम् उपचारिकाः
समीचीनम् अनन्तरं नीना भगिनी
कथा कथाः कथां कथाः
समीचीनम् वृन्दा भगिनी
कपाटिका कपाटिकाः कपाटिकां कपाटिकाः
समीचीनम् इदानीं नागेन्द्रमहोदय
कलिका कलिकाः कलिकां कलिकाः
काः समीचीनम् इदानीं नितिन् महोदय
कलिका कलिकाः कलिकां कलिकाः
कुञ्चिका अपि वदतु महोदय
कुञ्चिका कुञ्चिकाः कुञ्चिकां कुञ्चिकाः
समीचीनं चित्रा भगिनी
गन्धवर्तिका गन्धवर्तिकाः गन्धवर्तिकां गन्धवर्तिकाः
समीचीनं नीना भगिनी
गायिका गायिकाः गायिकां गायिकाः
समीचीनं वृन्दा भगिनी
गृहगोधिका गृहगोधिकाः गृहगोधिकां गृहगोधिकाः
समीचीनं शीला भगिनी
गोशाला गोशालाः गोशालां गोशालाः
समीचीनम् इदानीं नागेन्द्रमहोदय
घण्टिका घण्टिकाः घण्टिकां घण्टिकाः
समीचीनम् अस्तु इदानीं वयम् आकारान्तस्त्रीलिङ्गं कृतवन्तः इदानीम् ईकारान्तस्त्रीलिङ्गं कुर्मः अस्तु नितिन् महोदय अहम् एकम् उदाहरणं ददामि लेखनी लेखन्यः लेखनीं लेखनीः अहं लेखनीं क्रीणामि अहं लेखनीः क्रीणामि अङ्कनी करोतु
अङ्कनी अङ्कनीम्
अङ्कनी प्रथमविभक्तिरूप बहुवचनं किम् अङ्कनी
अङ्कनी अङ्कनी अङ्कन्याः अङ्कन्याः अङ्कनीम् अङ्कनी
अङ्कनीः
अङ्कनीः
अङ्कनीः समीचीनम् इदानीं चित्रा भगिनी
अङ्गुली अङ्गुल्यः अङ्गुलीम् अङ्गुलीः
अङ्गुलीः समीचीनम् इदानीं नीना भगिनी
जननी जनन्यः जननीं जननीः
अस्तु अनन्तरं वृन्दा भगिनी
अवसर्पणी अवसर्पिणी अवसर्पण्यः अवसर्पणी अवसर्पणीः
वाट् इस् अवसर्पणी
स्लैड्
ओके सारि ऐ डिडन्ट् सी दैट हियर स्लैड्
इदानीं कर्तरी नागेन्द्र महोदय
कर्तरी कर्तव्यः कर्तरीं कर्तरीः
समीचीनम् इदानीं शीला भगिनी
क्षेप्रणि क्षेप्रण्यः क्षेपणि
क्षेपणि
क्षेपणि क्षेपणि क्षेपण्यः क्षेपणीं क्षेपणिः
क्षेपणीः
क्षेपणीः
समीचीनम् अस्तु इदानीं वयं नितिन् महोदय गृहिणी
गृहिणी गृहिण्यां गृहिणीं गृहिणीः
गृहिणी गृहिण्यः गृहिणीं गृहिणीः
गृहिणी गृहिण्याः गृहिणी
गृहिणी गृहिण्यः
गृहिण्याः
गृहिण्यः
गृहिण्याः
इदानीं गृहिणीं
गृहिणीं
गृहिण गृहिणीं
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 गृहिणीः
गृहिणीः
समीचीनम् इदानीं चित्रा भगिनी
घटी घट्यः घटीं घटीः
समीचीनम् इदानीं नीना भगिनी
चालनी चालन्यः चालनीं चालनीः
समीचीनम् वृन्दा भगिनी जलकूपी करोतु
जलकूपी जलकूपण्यः जलकूप्यः जलकूपीं जलकूपी जलकूपीः
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 विसर्गः अस्ति चेत् तस्य पूर्वस्वरमेव भवति कूपीः
कूपीः
कूपीः एव अस्तु इदानीं शीला न नागेन्द्रमहोदय तन्त्रीः
तन्त्री तन्त्र्यः तन्त्रीं तन्त्रीः
समीचीनं महोदय शीला भगिनी दर्वी करोतु
दर्वी दर्विण्यः दर्विण्यं
न न दर्वी
दर्विण्यः
नदी नद्यः दर्वी
दर्भ्यः
दर्व्यः
दर्भ्यः दर्भिं दर्भिः
दर्वीं दर्वीः दर्वीं
दर्वीं दर्भिः 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 दर्भिः
दर्भिः
दर्भिः
अस्तु दर्वीः इदानीं वयं वाक्यानि कुर्मः नितिन् महोदय द्रोणी करोतु
द्रोणी द्रोण्याः
नो द्रोणी उपयुज्य वाक्यं करोतु कर्मपदम् अहं
द्रोण्यां द्रोणीं
क्रीतवान् अहं द्रोणीं क्रीतवान्
अहं द्रोणीं क्रीतवान्
बहुवचने
वयम्
अहं द्रोणीः क्रीतवान्
अहं द्रोणीः क्रीतवान्
इदानीम् अग्रिममपि करोतु द्विचक्री
अहं द्विचक्रीं चलितवान्
इदानीं बहु चालितवान्
अहं
बहुवचने
द्विचक्रीः चलितवान् चालितवान्
अस्तु इदानीं चित्रा भगिनी नटी करोतु
सेण्टेन्स् आर्
आम् आं वाक्यं
नटी डान्सर् नटी नटी हीस् एक्ट्रेस् न ओके अहं नटीं पश्यामि
आं बहुवचने
अहं नट्यां पश्यन्ति
न न न अहं नटी पश्यामि
नटीः पश्यामि नटीः
इदानीं नदी अपि करोतु
अहं नदीं हस्तप्रक्षालयं करोमि
अहं नदीं पश्यामि
अहं नदीं पश्यामि अहं नदीः अहं नदीः पश्यामि
पश्यामि समीचीनम् इदानीं वृन्दा भगिनी नर्तकी
अहं नर्तकीं पश्यामि अहं नर्तकीः पश्यामि
पश्यामि समीचीनम् शीला भगिनी भवती पट्टी करोतु
अहं पट्टीं करोमि अहं पट्टीः करोमि
समीचीनम् इदानीं नागेन्द्र महोदय
पत्नी
न न पुत्रसूची
पत्रसूची अहं पत्रसूची पश्यामि
पश्यामि बहुवचने
अहं पत्रसूचीः
पश्यामि
पश्यामि सः पत्रसूचीः पश्यति
समीचीनम् इदानीं वयं गृहपाठं कुर्मः नितिन् महोदय भवान् अग्रजः अध्यापकः शिक्षकः तस्य रूपाणि वदति वा
अग्रजः अग्रजम् अग्रजाः
न अग्रजः अग्रजम् द्वितीया बहुवचनं किम्
अग्रजाः
न द्वितीया बहुवचनं द्वितीयभक्ति बहुवचनम्
अग्रजानि
न अग्रजान्
अग्रजान्
समीचीनम् इदानीम् अध्यापकः अपि वदतु
अध्यापकान्
अध्यापकः
अध्यापकः अध्यापकाम्
अध्यापकान्
अध्यापकान् शिक्षकः शिक्षकान् शिक्षकान्
शिक्षकान् अस्तु अग्रे चित्रा भगिनी
अनुजः अनुजम् अनुजान्
अश्वः
अश्वः अश्वम् अश्वान्
आरक्षकः
आरक्षकः आरक्षकम् आरक्षकान्
समीचीनम् वृन्दा भगिनी आसन्दः
आसन्दः आसन्दम् आसन्दान्
समीचीनं कुर्मः
कुर्मः कुर्मम् कुर्मान्
कुर्मान् समीचीनम् इदानीं नपुंसकलिङ्गम्
अक्षरम्
अक्षरम् अक्षरम् अक्षराणि
आभरणम्
आभरणम् आभरणम् आभरणानि
समीचीनम् इदानीं नागेन्द्र महोदय
आम्रम् आम्रम् आम्राणि
उदरम्
उदरम् उदराणि
समीचीनम्
उपनेत्रम् उपनेत्रम् उपनेत्राणि
कङ्कणमपि
कङ्कणं कङ्कणं कङ्कणानि
समीचीनम् अस्तु इदानीं नितिन् महोदय
अग्निपेटिका अग्निपेटिकाम अग्निपेटिकानि
अग्निपेटिकाः
अग्निपेटिकाः
छुरिका
छुरिका छुरिकाम छुरिकाः
समीचीनं चित्रा भगिनी
द्विचक्रिका द्विचक्रिकां द्विचक्रिकाः
धाविका
धाविकां धाविकाः
नलिना
नलिना नलिनां नलिनाः
समीचीनं वृन्दा भगिनी
भगिनी व्हाट डस नलिना मीन
आई डोंट रिमेम्बर भगिनी आई विल जस्ट फाइंड आउट भगिनी
नौका नौकां नौकाः अंकनी अंकनीं अंकनीः
समीचीनं अनन्तरं शीला भगिनी
जननी जननीं जननीभिः
पुनः वदतु भगिनी
जननी जननीं जननीभिः
जननीभिः न भगिनी
जननीः
समीचीनम् आम् नलिनी नलिना इत्युक्ते लोटस् भगिनि
ओ ओके
नलिना इत्युक्ते लोटस्
धन्यवादः भगिनि
सो फार् अङ्गुली इस् इट् अङ्गुलीः
आम् अङ्गुलीः
अङ्कनीः
अङ्कनीः
नौकाः
समीचीनम् अस्तु
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः